कारा दध्योत्र अश्विना भांको भांजोष उभजोः कथा विधात्य प्रचेताः विद्वांसा विद्युरः प्रच्छेद विद्वानित्था परो अचेताः नो चिन्नमर्ते अक्रौ ता विद्वांसाः वामहे भान्ता नो विद्वांसा मन्वो चेतमद्या प्रार्चद्दयमानो युवाकुः विप्रच्छामि पाक्यान देवान्वषट्क्रतस्याद्भुतस्य दस्रा पातञ्जसह्यसो युवञ्चरभ्यसो नः प्रजाघोषे भृगपाठेन शोभे जजा वाचा जजति वज्रिजो वा प्रैषयुर्न विद्वान् श्रुतङ्गा यत्रन्तकपानस्याहं चिद्धिरिरेभाश्विना वाम् आक्षेषु भस्पतिदन् युवं ह्यास्तम् महोरन् युवं भाजन्निरततं सतम् तानो वसोऽसु गोपास्यादम् पातन्नो वृकादघायोः मा कस्मै धातमभ्यमित्रिणे नो मा कुत्रा नो गृहेभ्यो धेनवो गुः स्तनभुजो अशिष्वीः दुहीजन्मित्रधितये जुवाकुराजे च नो मिमीतम् वाजवत्यै इषे च नो मिमीतम् धेनुमत्यै अश्विनो रसनम् रथमनश्वम् वाजिनीवतोः तेनाहम् भोरिचाकना अयम् स महमातनो ह्याते जनाङ्कनो सोमपेयम् सुखो रथः अधस्वप्नस्य निर्भिदे भुञ्जतश्च रेपताः उभाता वस्रिणश्यतः